अस्तु, सर्वेषां स्वागतं. प्रार्थनया आरम्भं कुर्मः. अस्तु, शुक्लां भरतरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वति नमस्तुभ्यं वरदे कामरूपिणि. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः. गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः. ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यङ्करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. कृष्णो रक्षतु न जगत्त्रयगुरुः. कृष्णं नमस्याम्यहं. कृष्णेनामरशत्रवो विनिहताः. कृष्णाय तुभ्यं नमः. कृष्णादेव समुत्थितं जगदिदं. कृष्णस्य दासोऽस्म्यहं. कृष्णे तिष्ठति सर्वमेतदखिलं. हे कृष्ण रक्षस्व माम्. अस्तु, साध्यतन सुभाषितम् एवमस्ति. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः. स हेतुः सर्वविद्यानां धर्मस्य धनस्य च. स हेतुः सर्वविद्यानां धर्मस्य धनस्य च. सुलभः एव सुभाषितं. जलबिन्दु, सो अत्र जलबिन्दु निपातेन पतनेन, जलबिन्दु पतनेन क्रमशः इत्युक्ते किञ्चित् किञ्चित् अधिकमधिकं कृत्वा क्रमशेन क्रमशः पूर्यते घटः. अर्थम् अवगच्छति खलु? जलबिन्दुनिपातेन एकमेकं जलबिन्दु अधिकमधिकं घटे पतति. जलबिन्दुनिपातेन क्रमशः एकमेकम् इति क्रमेण क्रमशः पूर्यते घटः. घटं पूर्णं भवति क्रमशः, बिन्दु बिन्दुशः बिन्दुशः. एवमेव सः एव हेतुः. हेतुः इत्युक्ते कारणेन, एतादृशकारणेन. एवमेव इति स हेतुः. एवमेव सर्वविद्यानाम् अपि, अत्र अपि सस्यं क्रमशः वर्धते, क्रमशः वर्धते. एवमेव अस्माकं ज्ञानमपि क्रमशः विद्यते, क्रमशः अधिकं भवति. विद्या किमपि विद्या कापि विद्या भवतु क्रमशः अधिकं भवति. धर्मपालनमपि इत्युक्ते यदा वयं लघु बालकः बालिका भवामः तस्मिन् समये वयम् एत धर्मं पालनीयम् इति मनसि तादृशभावं स्थापयामः चेत् यदा वयं प्रौढाः भवामः तदापि धर्मं पालयितुं बुद्धिः भवति. सो अतः एवमेव धनमपि सङ्ग्रहणं किञ्चित् किञ्चित् करणीयम्. अग्रे अधिकं धनं प्राप्नुमः इति. सो अतः यथा जलबिन्दु क्रमशः घटे पूर्णं भवति, क्रमशः पतति, तादृशं भवति चेत् घटं पूर्णं भवति. तादृशमेव सर्वमपि अस्माकं धनं किञ्चित् किञ्चित् सम्पादयामः, सङ्ग्रहणं कुर्मः, सस्यं बहु भवति, तादृशम् अस्माकं विद्या अपि बहु भवति, तादृशं धर्ममपि वयं पालनीयम् इति बुद्धिः भवति. धर्मपालनमपि धर्मसङ्ग्रहणमपि अधिकं भवति. सो अत्र पठामः. क्रमशः जलं बिन्दुशः पतति नलिकातः. नलिका इत्युक्ते नलिकातः पतति. क्रमशः पात्रं पूर्णं भवति. एवमेव विद्यायाः सङ्ग्रहणं सङ्ग्रहः क्षणशः क्षणशः क्षणशः. क्षणम् इत्युक्ते समयः, क्षण इत्युक्ते बिन्दु बिन्दु इव, पायिण्ट् बै पायिण्ट् इति. क्षणशः क्षणशः पूर्णं भवति विद्या अपि. धर्मकार्याणि अपि यः कुर्वन् गच्छति जीवने, इत्युक्ते बालकतः आजीवनं कुर्वन् गच्छति, अग्रे सः धर्मनिष्ठा भवति. धर्मनिष्ठा इत्युक्ते धर्ममेव करणीयम्, अधर्मः अधर्मस्य विषये चिन्तनं मास्तु इति तादृशं. धर्मनिष्ठा भवति. धनसङ्ग्रहणं कणशः कणशः नाणकानि न त्यक्त्वा सम्पादयति चेत् अग्रे प्रभूतं धनं सम्पादयति यः यः कोऽपि धनवान् भवति. एवं जलं विद्या धनं धर्मसम्पादनं च क्रमशः एव भवति, परन्तु अग्रे पूर्णं भवति इति सुभाषितस्य अर्थः. पुनः पठामः. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः, स हेतुः. एवमेव सर्वविद्यानां धर्मस्य धनस्य च एवमेव भवति. एवमेव इत्युक्ते क्रमशः भवति, क्रमशः सङ्ग्रहणं भवति इति.
Bhagini, when we were young, we used to read a poem, Little Drops of Water Makes a Mighty Ocean.
Ah, yes, yes, I remember that.
Yeah, that first line is something like that, Bhagini.
Ama, ama, nischayena, nischayena. Nischayena. Astu, agre gachamaha, adhyatana katha, bahu uttama katha, sundari katha asti. So, atra, vayam idani, pustakadvayam, सम्पूर्णं कृतवन्तः, समापितवन्तः एतया कथया. इत्युक्ते प्रथमं पञ्चतन्त्रकथापुस्तकम्, अन्यत् एकं सुगन्धः इति पुस्तकं, तृतीयपुस्तकं प्रति गच्छामः, नो चेत् सम्भाषणसन्देशः इति अस्ति, ततः सङ्ग्रहणं कृत्वा पठामः. अस्तु, आरम्भं करोतु. अधस्तात् आगच्छामः वा? उषा भगिनि आरम्भं करोतु भगिनि, कृपया. अस्ति वा उषा भगिनि?
कश्चित् राजा आसीत्, सः परिश्रमेण राज्यं पालयति स्म. प्रजानां हितार्थं शतधा प्रयत्नं करोति स्म. तथापि नवीनाः समस्याः उपद्यन्ते स्म. अतः राजा श्रान्तः, अन्ते च राजा स्वगुरोः समीपं गतवान्. गुरुः अरण्ये निवसति स्म. गुरोः आश्रमं गत्वा राजा स्वकीयसमस्याः निवेदितवान्. राज्ञः कथनं समग्रं श्रुत्वा गुरुः उक्तवान्, एवं चेत् राज्यं परित्यजतु.
अस्तु भगिनि, सो अत्र प्रथमं कथायाः शीर्षकं, कथायाः नाम अस्ति इदं न मम. इदं न मम इत्युक्ते एतत् मम नास्ति इति भावना. अस्तु, आं भगिनि, पठतु. I mean,
you want me to do the translation or cultivation?
Sarala Bhasha. Kim avagacchati iti vadatu. Only then we will learn, we will figure out how to talk, Bhagini. It's okay. Angila Bhasha madhye madhye agacchati che tavi nasti chinta.
Kaschit ekam raja asit. सः बहु सम्यक् राज्यं परिश्रमेण पालयति स्म. प्रजानां हितार्थं शतधा प्रयत्नं करोति स्म. शतधा इत्युक्ते सर्वदा.
शत इत्युक्ते हण्ड्रेड् इति, शतधा लैक् हण्ड्रेड्स् आफ् प्रयत्नम् इति तादृशं. बहु प्रयत्न, बहु बहुविधप्रयत्नं करोति स्म.
तथापि नवीनाः समस्याः उत्पद्यन्ते स्म. नवीनसमस्याः
आगच्छति.
अतः राजा श्रान्तः आसीत्. अन्ते बहु चिन्तनं करोति अन्ते च राजा स्वगुरोः समीपं गतवान्. गुरुः अरण्ये निवसति स्म. अतः गुरोः आश्रमं गत्वा राजा स्वकीयसमस्याः स्थापितवान्. गुरोः अग्रे
समापितवान् उक्तवान्. अस्तु.
राज्ञः कथनं समग्रं श्रुत्वा गुरुः उक्तवान् एवं चेत् राज्यं परित्यजतु इति.
सम्यक् भगिनि. सो अत्र बह्व्यः समस्याः सन्ति, श्रान्तः सन्ति इति भवान् चिन्तयति चेत् राज्यं मास्तु, राज्यपालनं मास्तु, राज्यं त्यजतु इति सः उक्तवान्. अस्तु, अग्रे किम् अभवत् सविता भगिनी?
भगिनी द्वौ प्रश्नौ स्तः.
वदतु भगिनि.
श्रान्तः इत्युक्ते किं भगिनि?
श्रान्तः इत्युक्ते कार्यं कर्तुं शक्तिः नास्ति. इदानीम् अहं परिश्रमं, बहु परिश्रमं कृतवती अहम्, अतः शक्ति सर्वं गता, शक्तिः गता. टयर्ड् इति.
अन्ते च राजा, तत्र च किमर्थम् अस्ति? च राजा
अन्ते, अन्ते अत्र अन्ते च
कृत्वा
अन्ते अपि पर्याप्तमेव. च इति न आवश्यकं, परन्तु सुन्दरभाषा इति अतः.
नार्मली इट्स् अ कन्जङ्क्षन् नो भगिनि?
आम् आम् निश्चयेन. सो प्राबब्लि मेण्ट् लैक् एण्ड् इन् दि एण्ड् इति, परन्तु तादृशमपि नास्ति. अन्ते राधा स्वगुरोः समीपे गतवान् इति पर्याप्तमेव. किमर्थं च अत्र अस्ति इति न
जानामि. धन्यवादः.
निवेदितवान् अपि सुन्दरी, सुन्दरं पदम् उक्तवान्. उक्तवान् अपि इति समाप्तमेव. उक्तवान् पर्याप्तं, परन्तु निवेदितवान् सम्यक् अस्ति.
Does it indicate a level of respect when you say निवेदितवान्?
Yeah, right. निवेदितवान् like he proposed,
presented, like, presented like
presented, yeah, presented, सम्यक् presented, सम्यक् भगिनि. अस्तु, सविता भगिनि अग्रे.
आं भगिनि. राजा, राज्यपरित्यागेन समस्यायाः परिहारः न भविष्यति, सर्वं विपर्यस्तं भवेत्. अराजकता अपि उत्पन्ना भवेत्. गुरुः अथवा स्वपुत्राय राज्यं समर्पयतु, भवान् अरण्यम् आगच्छतु, मया सह निवसतु, भगवतः ध्यानं करोतु. राजा परित्यागेन समस्या, राजपरित्यागेन समस्या परिहारः न भविष्यति. राजा उक्तवान् राज्यपरित्यागं एकं परिष्कारं परिष्कारं न भविष्यति, समस्याः परिहारः न भविष्यति.
इत्युक्ते समस्या भवति एव, समस्यायाः निवारणं न भवति
न भवति इति उक्तवान् सर्वं विपर्यस्तं भवेत् विपर्यस्तं मीन्स् आपोसिट् इस् इन् भगिनि वाट् आर् यु थिङ्किङ्ग्
विपर्यस्तं
what is the meaning of viparyastam bhagini
viparyastam it will go to another place iti samasya tata eva bhavati tam iti viparyastam itite tatra anyatra gacchati samasya anyatra gacchati
arajaka api utpanna bhavet arajaka arajakata anima mani there's lot of what do you call riots like happening
arajakata itike rajyam palayitum kopi nasam
rajyam palayita asamartha iti something nothing is peaceful like arajakata is something like riots happening
परन्तु तत्र अराजकता राजा नास्ति चेत् अराजकतं भवति लैक् देर् इस् नो लीडर् अराजकता
अपि उत्पन्ना भवेत् देर् इस् नो आल्टर्नेटिव् लैक् देर् इस् नो राजा
देर् इस् नो राजा सो इफ् देर् इस् नो लीडर् देर् विल् बि अन्रेस्ट्
सम्थिङ्ग् गुरुः अथवा सपुत्राय राज्यं समर्पयितुं गुरुः उक्तवान् स्वपुत्राय राज्यं समर्पयितु अपि अरण्यम् आगच्छतु मया सह निवसतु भगवन्तं ध्यानं करोतु इति गुरुः उपदेशं कृतवान् हि अड्वैस्
अस्तु
क्षम्यतां भगिनि राज्ञः अर्थम् ऐ मीन् बहुवचने अस्ति राज्ञः
षष्टिविभक्ति राजा महाराजस्य कथनम् अथवा राज्ञः कथनम्
परिहारमर्थं किं भगिनि
परिहारम् इत्युक्ते निवारणं टु रिमूव् इति समस्यायाः निवारणं न भवति
परिहारम् इस् सोल्यूशन् भगिनि सम्थिङ्ग्
सोल्यूशन् बट् हियर् द सोल्यूशन् आफ् द प्राब्लम् आर् निवारणमपि लैक् रिमूवल् आफ् द समस्या मीनिङ्ग् सोल्यूशन्
समस्यायाः बहुवचन एक विभक्ति बहुवचन
समस्यायाः षष्टि एकवचनम्
धन्यवादः भगिनि
निश्चयेन भगिनि सर्वं विपर्यस्तं भवेत् विपर्यस्तं भवेत् इत्युक्ते अनदर् प्राब्लम् विल् स्टार्ट् अराजकता अपि उत्पन्ना भवेत् अस्तु प्रश्नः अस्ति वा मया सह आगच्छतु इति वदति अस्तु अग्रे सन्ध्या भगिनि
राजा किन्तु मम पुत्रः अल्पवयस्कः बालः सः राज्यभारस्य निर्वहणे असमर्थः गुरुः तर्हि राज्यं मह्यम् एव ददातु अहं राज्यपरिपालनव्यवस्थां करोमि राजा अवश्यं ददामि गुरुः तर्हि हस्तेन जलम् आनयतु समग्रं राज्यं मह्यं दानरूपेण ददातु
अस्तु भगिनि
राजा अवदत् मम पुत्रः बालकः एव अस्ति सः राजपरिपालनं न कर्तुं शक्नोमि इति राजा उक्तवान् निर्वाहणं न कर्तुं शक्नोमि इति राजा
शक्नोति
इति राजा चिन्तितवान् अतः गुरुम् उक्तवान् गुरुः उत्तरं दत्तवान् यदि पुत्रः अल्पवयस्कः अस्ति चेत् सारि चेत् विल् नाट् कम् यदि पुत्रः अल्पवयस्कः अस्ति तर्हि राज्यं मह्यं ददातु इति अहं राज्यपरिपालनं करोमि इति गुरुः उक्तवान् राजा उक्तवान् गुरोः अहम् अवश्यं तुभ्यं राज्यं ददामि इति तुभ्यं चतुर्थी नो भगिनि
सम्यक् एव तुभ्यं ददामि
गुरुः तदनन्तरं गुरुः उक्तवान् किञ्चित् जलं हस्तेन आनयतु समस्तराज्यं गुरुं समर्पितवान् इति वदतु इति गुरुः उक्तवान्
सम्यक् अस्तु धन्यवादः भगिनि अवगच्छन्ति खलु सो राजा वदति मम पुत्रः असमर्थः इत्युक्ते राज्यं पालयितुं समर्थः नास्ति न शक्नोति अल्पवयस्कः इति सो अतः गुरु वदति मह्यं ददातु राजा अस्तु इति अङ्गीकृतवान् अस्तु सागरि भगिनी अग्रे
राजा तथैव आचरामि
अत्र मुद्रणदोषः राजा तथैव करोति इति
तथैव करोति भवते राज्यं दत्तं गुरुः इदानीं भवान् कुत्र गच्छति राजा कोशतः किञ्चित् धनं स्वीकरोमि अन्यदेशं गच्छामि तत्र वाणिज्यं करिष्यामि राजा अङ्गीकृतवान् तस्य राज्यं गुरुं दत्तवान् गुरु पृष्टवान् इदानीं भवान् किं करोति कुत्र गच्छति इति राजा उक्तवान् अहं धनकोशं गत्वा किञ्चित् धनं स्वीकरोमि अहम् अन्य देशं गत्वा वाणिज्यं करोमि इति उक्तवान्
सम्यक् भगिनि सम्यक् एकमेव गुरवे राज्यं दत्तवान् ददाति इति अस्ति चेत् चतुर्थी विभक्ति गुरवे अन्य उत्तमं भगिनि सो अतः सः राजा वदति अहं धनकोशतः धनं स्वीकृत्य अन्य कुत्रापि गच्छामि इति अस्तु निर्मला भगिनी पठितुमिच्छति वा अस्तु मालती भगिनी भवती निर्मला भगिनी अस्तु
गुरुः भवान् राज्यं मह्यं दत्तवान् किल तदा कोशः अपि मम एव भवान् धनं कथं स्वीकर्तुम् अर्हति राजा क्षम्यतां पुनः राज्यं न प्रविशामि गुरुः तर्हि किं करोति भवान् राजा कुत्रापि गत्वा उद्योगं सम्पादयिष्यामि
धन्यवादः भगिनी इदानीं वदतु
गुरु उक्तवान् राज्यं मया दत्तवान् अपि मम राज्यं मम एव भवान् धनं स्वीकृतं न अर्हति. राजा उक्तवान् क्षम्यतां राज्यं न प्रवेशयामि. प्रवेश मीन्स् ऐ विल् नाट् एण्टर् द किङ्ग्डम् अगेन्.
नाट् एण्टर् राज्यस्य अन्तः न गच्छामि.
गुरु उक्तवान् तर्हि किं करोति भवान्? राजा कुत्रापि गत्वा उद्योगं सम्पादयिष्यामि. मीन्स् ऐ विल् गो समवेर् एण्ड् सर्च् फार् सम् जाब् एण्ड् अर्न् सम्थिङ्ग्.
आमाम् इति सः उक्तवान्. उत्तमं भगिनि, धन्यवादः. अवगच्छन्ति खलु? प्रश्नः चेत् पृच्छन्तु, नो चेत् अग्रे गच्छामः. मालती भगिनी न वदति इति चिन्तयामि.
भगिनि, प्रविशामि मीन्स् एण्टर् इस् इट्?
एण्टर् एण्टर्.
धन्यवादः
धन्यवादः
भगिनी. विच् बुक् वास् दिस् इन् दिस् स्टोरी?
This is from the Sugandha Pustakam, the last story.
Yeah, it's, okay. So there are two parts to it, I guess. One and two?
No, nasty. One and two, nasty.
No, I mean, I have the book, Sugama, but it is saying Dvitiyam Pustakam, and it's not there in the, as the last lesson. I saw it.
Sugama, na. सुगन्धः.
ओके ओके.
सुगन्धः पुस्तकं
भगिनि. दीस् बुक्स् केन् बि प्रोक्यूर्ड् इस् इट्?
आम् आम् भगिनि.
ओके, डिजिटल् वर्जन् इस् अवेलेबल् भगिनि फार् पर्चेस्?
नाट् डिजिटल् वर्जन्, सो ऐ स्कान्ड् इट् नो आल् दिस्.
ओके ओके, अस्तु. बिकास् इट् विल् बि यूस्फुल् टु रिवैस् इट् एट् सम् पॉइंट.
आम् निश्चयेन निश्चयेन. I think I have it in the drive, you know, if you go there, the scanned copies are in the drive.
Oh, thank you so much, Bhagini.
Oh, nischayana Bhagini. Malati Bhagini, vaktum icchati va?
I can only read.
Astu Bhagini, patatu.
I can understand.
Aam Bhagini, patatu.
Bhavan udyogam kartum icchati kila. मम इदानीं विशालं राज्यम् अस्ति. सन्यासी अहं व्यवस्थां कर्तुम् असमर्थः. मम एकः समर्थः सहायकः अपेक्षितः. भवान् एव मम सहायकः भवतु. भवान् किं सहायं कर्तुं शक्नोति? राजा, अवश्यं करोमि.
आङ्ग्लभाषया वदतु भगिनि.
That is, I wish to do the work, and then I have, this is a big rajyam, that is country, and then...
Bhavan udyogam kartum icchati kila?
Udyogam means work.
Work. किमर्थम् इत्युक्ते राजा वदति अहम् अहं कुत्रापि गत्वा उद्योगं करोमि, सम्पादयिष्यामि इति. सो गुरुः वदति भवान् उद्योगं कर्तुम् इच्छति किल. मम इदानीं विशालं राज्यम् अस्ति. ऐ हाव् अ बिग् किङ्ग्डम्.
ऐ हाव् अ बिग् किङ्ग्डम् एण्ड् देन् सन्यासी अहं व्यवस्थां कर्तुम् असमर्थः. Here I didn't. Sanyasi, yeah, Sanyasi. Aham. Vyavastham.
Sanyasi.
I am, Asamadha means I am not in a position. I am not in a...
I am not capable.
I am not... Capable. Yeah, capable.
I am not capable of
capable
managing the Rajyam.
Yeah, because I am a Sanyasi. Right?
I am only a Sanyasi. I don't know how to manage.
How to manage the kingdom.
मम एक समर्थः सहायकः अपेक्षितः.
समर्थः अंटे ऐ नीड अ पर्सन, केपेबल पर्सन टु हेल्प.
टु हेल्प.
लुकिंग फॉरवर्ड. अपेक्षितः मीन्स ऐ विश
ऐ वांट.
ऐ वांट.
ऐ होप. सो एवरीथिंग इज
अपेक्षितः.
ऐ वांट. ऐ नीड. सो दिस इज बेसिकली अत्र नीड.
या. So you help me. you help me eva mama sahayaka bhavatu and then bhavan kim sahayam kartum shaknoti can you do it shaknoti means
can you do it
avashyam karomi yes I will do it
definitely I will do it. So atra kim I would like to put it in the back and change it to va bhavan sahayam kartum shaknoti va like that bhavan yes. kim sahayam kartum shaknoti
shaknoti
va but if you are going to put the kim here we can pause a bit bhavan kim sahayam kartum shaknoti like that dhanyavada bhagini
can someone translate in sanskrit I would like to hear that
would somebody like to translate this
in sanskrit yeah
in sanskrit anybody
I can try bhagini
अस्तु भगिनि करोतु
गुरुः पृच्छति त्वम् उद्योगं कर्तुम् इच्छति खलु अतः अहम् एकः विषयं वक्तुम् इच्छामि मम समीपे इदानीं विशालं राज्यमस्ति अहं सन्यासी अस्मि अहं राज्यं कर्तुं न जानामि राज्य निवारणं कर्तुं न शक्नोमि अतः अहम् एकः सहायकः इच्छामि त्वं सहायकं कर्तुं शक्नोति वा इति गुरुः पृच्छति राजा वदति हे गुरोः अहम् अवश्यं सहायकं करोमि इति राजा उत्तरं ददाति
सहायं करोमि सहायं करोमि सहायकं भवामि सहायं करोमि नो 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 इट्स् ओके भगिनि ऐम् जस्ट् हेल्पिङ्ग् दट् उत्तमं भगिनि बहु उत्तमतया उक्तवती
धन्यवादः
अस्तु अस्तु अग्रे चम्पा भगिनि
complicated it I just attempted
that is how you have to do bhagini you know when I was learning spanish in college I went to college here too and then I took spanish and it was very interesting because even one small paragraph you can add so much and then he said I liked the way you did because you were practicing the language that's all yeah so it's actually fun bhagini nischayana
thank you bhagini
nischayana bhagini astu champa bhagini
bhagini
tarhi
guruhu vadati tarhi itah arabhya bhavan mama sahayakah rajyam gacchatu शासनं करोतु किन्तु तत्र भवतः किमपि नास्ति लाभः हानिः कष्टं सुखं सर्वं मम एव भवेत्
भवते
वेतनं दास्यामि गुरु
अन्यत् अपि करोतु भगिनि अन्य अग्रे अपि किञ्चित् अग्रे गच्छतु राजा पुनः
राज्यं गतवान् कार्ये निरतः अभूत् मासद्वयम् अतीतम् एकदा गुरुः आगतवान् राजानं पृष्टवान् राज्यव्यवस्था कथम् अस्ति जीवनं कष्टकरं प्रतिभाति किम् इति
सम्यक्
गुरुः तर्हि इतः आरभ्य भवान् मम सहाय गुरु वदति राजां मम सहायकः राज्यं गच्छतु शासनं करोतु राजा गुरु वदति राज्यं गच्छतु शासनं करोतु किन्तु तत्र भवतः किमपि नास्ति लाभः हानिः कष्टं सुखं सर्वम् एव गुरुः वदति भवते वेतनं दास्यामि गुरु वेतनं राजां ददाति राजा पुनः राज्यं गतवान् राजा पुनः राज्यम् अगच्छत् कार्ये निरतः अभूत् अहं न जानामि भगति
इत्युक्ते कार्ये निरतः आसीत् सः
आसीत् ओके मासद्वयं व्यतीतवान् एकदा गुरु आगतवान् एकदा गुरुः अगच्छत् अगच्छत् राजानं पृष्टवान् राज्यव्यवस्था कथमस्ति जीवनं कष्टकरं प्रतिभाति किं गुरुः वदति इति
उत्तमं भगिनि सो अत्र किं किम् अभवत् गुरुः वदति साहाय्यकः अस्ति इदानीं सो अतः राज्यं गच्छतु शासनं करोतु तत्र भवतः इति किमपि नास्ति सर्वं मम एव लाभः हानिः सुखं दुःखं सर्वं मम एव अहं धनं दास्यामि मासान्तरधनं दास्यामि इति सो अतः राजा सन्तोषेण कार्यं करोति कार्ये निरतः निरतः इत्युक्ते अन्ये किमपि चिन्तनं नास्ति कार्यस्य चिन्तनमेव इदानीं किं करणीयम् इति कार्ये निमग्नः इति अन्य पदमपि अस्ति तादृशपदं कार्ये निमग्नः एव आसीत् मासद्वयानन्तरं गुरुः पुनः पृच्छति इदानीं कथम् आसीत् जीवनं कष्टकरम् अस्ति खलु किमर्थम् एतत् पृष्टवान् पूर्वं राजा उक्तवान् समस्याः सन्ति बहु कष्टकरम् अस्ति श्रान्तः अस्मि एवम् अस्ति तादृशम् अस्ति इति उक्तवान् जीवनं कष्टकरम् अस्ति किम् इति प्रतिभाति इत्युक्ते एवं चिन्तयति वा एवम् अस्ति वा इति इट् सीम्स् इति वयं वदामः खलु तादृशम् अप्यर् डस् इट् अप्यर् इट् डस् इट् सीम् कष्टकरम् इति अस्तु अन्तिमं श्रीनिवासमहोदय
धन्यवादः भगिनि
धन्यवादः भगिनि श्रीनिवासमहोदय समस्या वा आडियो प्राब्लम् समस्या किमपि अस्ति वा अस्तु सो अत्र अन्य कोऽपि पठितुम् इच्छति वा उषा भगिनी पठति वा अन्तिम नैव
अहं केवलं सेवकः श्रद्धया परिश्रमेण च अहोरात्रं कार्यं करोमि तथापि चिन्ता नास्ति इति उक्तवान् प्रातः एषः एव योगः
उषा भगिनी श्रीनिवास महोदय आगतवान् अस्तु महोदय अग्रे अग्रे पठतु
नैव इदानीं मम किम् अस्ति अहं केवलं सेवकः श्रद्धया परिश्रमेण च अहोरात्रं कार्यं करोमि तथापि चिन्ता नास्ति इति उक्तवान् राजा भ्रातः एषः एव योगः इदं न मम इति भावेन कार्यं करणीयं तेन कष्टशतम् अपि सोष्टुं शक्ता भवामः इति उक्तवान् गुरुः
सोडुम्
ओके राजा उक्तवान् इदानीं मम किम् अहं सेवकः एव अहं राजा नास्ति सेवकभावेन पूरा सेवकभावेन परिपूर्णपरिश्रमेण अहं कार्यं करोमि मम चिन्ता नास्ति इति उक्तवान् गुरुः उक्तवान् एषः एव योगः इदं न मब इति भावेन कार्यं करणेन कष्टशतमपि दूरं कर् शक्नुमः इति
उत्तमं खलु उत्तम
This is the real life story between Maharaja Shivaji and Samartha Ramadas.
Shivaji and who?
Samartha Ramadas.
Samartha
Ramadas is his guru.
Guru, Samartha Ramadas. Oh, Uttama. Samya. I wish they had written it here. Astha.
So profound, Bhagini. What a beautiful story.
What a beautiful ending to the book. आम् कर्मण्येव अधिकारस्ते न फलेषु कदाचन उत्तम वेरि वेरि गुड् उत्तम
कथा
इदं न मम विषये इन् दि एण्ड् द फलम् इस् नाट् मै
मीनिङ्ग्
इस् क्लियर् सो अत्र अहोरात्रम् इत्युक्ते किम् अहोरात्रम् इत्युक्ते डे अण्ड् नैट् इत्युक्ते सर्वदा परिश्रमेण सर्वदा सो बट्स् अ ब्यूटिफुल् वर्ड् अहोरात्रम्
अहोरात्रं फस्ट् पेराग्राफ् आल्सो द सेम् वर्ड् वास् दट् यु वास् डूङ्ग् अर्लियर् आल्सो लैक् दट् फस्ट् पेराग्राफ् द सेम् वर्ड् वास् दट् अहोरात्रम्
ओ रियलि अस्तु नास्ति चिन्ता
भगिनि कः उक्तवान्
सो ऐ मिस्ड् इट् ओके सो पुनः वदतु श्रीनिवास महोदय प्रश्नः आगतः कः कम् उक्तवान् शिवाजी महाराज अपि च गुरोः नाम किं
गुरोः समर्थ रामदास
समर्थ रामदास् अस्तु वा चम्पा भगिनि
धन्यवादः भगिनि
सहितुं सोढुं सो अत्र पूर्वं वयं पठितवन्तः शतदा हण्ड्रेड्स् आफ् इति शतदा समस्याः अत्र कष्टशतं हण्ड्रेड्स् आफ् डिफिकल्टीस् इति किम् इतः मीन्स् फ्रम् नौ आन् वर्ड्स् इति
हेण्ड्लिङ्ग्
टु सहितं Yeah.
Not only like, what handling is palayati?
Handling is palayati. Palana, like shasanam karoti to, is to roll. Palanam
kartum shaktumahai. Palayam shaktumahai.
Palanam itikte to take care. Like shishum palayati, like that. Evam. Evam bhavati.
Bhagini, just a small request, a small clarification.
Ah.
When idam na mama, is it that this is not mine or are the consequences not mine? What does it actually mean?
No, it's just generally this is not mine. So atra, if I say this is mine, if something breaks, I feel sad like that. So this is not mine, nothing is mine like that. I am just a caretaker.
Any yajna and all that we do at home, after giving the dhanam, we say this, idam na mama, comes very
frequent. We always say that, this is not mine. So this, the palam I'm going to get with the yajnam is not mine. In the end, we always say that, idam na mama. So when we say that, there is so much freedom, Kalo, really. Nothing is ours. So this is a very good ending to that book. So Agre, we can either choose the stories from the Katha Mala, or we can get some new stories. Asti idanim pustakam prati gachamah kinchiteva asti samayah parantu. एतत् गतवर्गे पठितवन्तः खलु गीतोपदेशप्रसङ्गः स्मरन्ति वा इति पश्यामः उत्तरम् आवश्यकम् इदानीम् एतेषां प्रश्नानाम् उत्तरं लिखत के युद्धभूमौ समवेताः एकवारं पठामः वा
आं भगिनि
बेटर् अस्तु अस्तु श्रीनिवास महोदय आरम्भं करोतु
नमस्ते महोदय
नमस्ते गोपिका भगिनि स्वागतं
किञ्चित् विलम्बः जातः क्षम्यतां
नास्ति चिन्ता अस्तु महोदय
महाभारतयुद्धं निश्चितम् आसीत् युद्धं कर्तुम् इच्छतः गौरवाः पाण्डवाश्च कुरुक्षेत्रयुद्धभूमौ समवेताः अभवन्
समवेत सो अत्र कौरवाः कुरुक्षेत्रं कौरवाः फस्ट् क्वश्चन् आन्सर् इस् के युद्धभूमौ समवेताः कौरवाः पाण्डवाश्च कुरुक्षेत्रयुद्धभूमौ समवेताः अभवन् अस्तु अग्रे किम् अस्ति पाण्डवानां सेनापतिः कः आसीत्
द्रौपदपुत्रः दृष्टद्युम्नः पाण्डवानां सेनापतिः आसीत्
सेनापतिः आसीत् आचार्यः भीष्मः कौरवाणां सेनापतिः आसीत् अस्तु युद्धे कति क्षत्रियाः उपस्थिताः आसन्
असङ्ख्याः
क्षत्रियाः तत्र सम्मिलिताः आसन् सो दट् इस् दि आन्सर् असङ्ख्याः गणनं कर्तुं न शक्नुमः असङ्ख्याः सङ्ख्या का इति वक्तुं न शक्नुमः तादृश असङ्ख्याः क्षत्रियाः दृष्टद्युम्नः कस्य पुत्रः दृष्टद्युम्नः
पुत्रः
द्रुपदस्य पुत्रः सो अत्र अहं किञ्चित् पठामि भीष्मः सिंहनादं कृत्वा शङ्खनादं कृतवान् अतः सैनिकाः शङ्खान् भेरीः फणवान् आनकान् गोमुखान् च वादितवन्तः पाण्डवाः अपि शङ्खनादं कृतवन्तः अर्जुनः स्वस्य रथस्य सारथिं श्रीकृष्णम् उक्तवान् अच्युत सेनयोरुभयोर्मध्ये अत्र नास्ति उपयोर् परन्तु आगत मुखात् आगतः मम तत्र युद्धार्थम् उपस्थितान् सर्वान् अहं द्रष्टुम् इच्छामि इति अस्तु तत्र अस्तु अग्रे कः
कस्य पुत्रः
सो अत्र नास्ति खलु. कः शङ्खनादं कृतवान्? सो अत्र अस्ति पुत्रः दृष्टद्युम्नः. अस्तु, कः शङ्खनादं कृतवान्? कृतवान्. अस्तु, कृष्णः अर्जुनं किम् उक्तवान्?
अर्जुनम् उक्तवान् पार्थः अत्र समवेतान्
अच्युत सेनयोर्मध्ये मम रथं स्थापय, अहं द्रष्टुम् इच्छामि सर्वान्. अर्जुनः कृष्णं किम् उक्तवान्? अर्जुनं किम् उक्तवान्? ओके, कृष्णः अर्जुनं किम् उक्तवान्? अस्तु, कृष्णः
अत्र समवेतान् सर्वान्
कुरून् पश्य पार्थ, अत्र समवेतान् सर्वान् कुरून् पश्य. धन्यवादः. अस्तु, सेनकाः कान् वादितवन्तः?
पूर्वमासीत्वन्तः.
अस्तु, सर्वान् कः पूर्वमेव मारितवान्? ऐ थिङ्क् ऐ स्किप्ड् वन्.
सर्वान्
कः पूर्वमेव मारितवान्? कृष्णः. कृष्णः सर्वान् मारितवान् पूर्वमेव मारितवान्. एतान् अहं न इच्छामि, परन्तु अर्जुन अहमेव पूर्वमेव मारितवान् अस्मि. So this was said by Sri Krishna. So we will just read it. Drashtum Ichchami, Sri Krishna Vadati, Senayor Madhye Ratam Sthapayitva, Uktavan Partha, Aham Samavetan Sarvan Kuru, Atra Samavetan Kurun Pashya, Arjunaha Tata Pitrun Madhya Mahan, Acharyan Matulan, Bhratrun Putran, पौत्रान् सखीन् दृष्टवान्. उपस्थितान् तान् सर्वान् बन्धून् दृष्ट्वा अर्जुनः परमं विषादं प्राप्तवान्. सः कृष्ण, एते सर्वे मम बान्धवाः, एतान् अहं मारयितुं न इच्छामि, अहं युद्धं कर्तुं न इच्छामि, युद्धं न करोमि इति उक्त्वा बाणं धनुः च विसृज्य सखी उपविष्टवान्. तदा श्रीकृष्णः अस्य अज्ञाननिवारणार्थं गीतोपदेशं कृतवान्. गीतोपदेशं सः उक्तवान् अर्जुन, त्वम् अचिन्तनीयान् विषयान् मा चिन्तय. अचिन्तनीयान् विषयान् पाण्डवाः गतासून् आगतासून् च न अनुशोचन्ति, त्वमेव शोकं मा कुरु. त्वमपि शोकं मा कुरु, एतान् सर्वान् अहमेव पूर्वं मारितवान् अस्मि, त्वं निमित्तमात्रं भव. कर्मकरणे तव अधिकारः, न तु फले, अतः त्वं फलविषये मा चिन्तय, कर्म कुरु इति. सो पूर्वमेव मारितवान्. कृष्णः किमर्थं गीतोपदेशं कृतवान्? अज्ञाननिवारणार्थं गीतोपदेशं कृतवान्. सैनिकाः कान् वादितवन्तः? तत्पूर्वमेव उक्तवन्तः वयम्. अर्जुनस्य मोहः कथं नष्टः? कृष्णस्य
उपदेशं श्रुत्वा अर्जुनस्य
विश्वरूपदर्शनेन अर्जुनस्य मोहः
नष्टः. ततः श्रीकृष्णः अर्जुनाय अस्तु कर्म कुरु इति. ततः ततः मीन्स् अनन्तरं श्रीकृष्णः अर्जुनाय विश्वरूपं दर्शितवान्. सी अत्र अर्जुनाय, सो दिस् इस् चतुर्थि, फार् द सेक् आफ् अर्जुन इति. अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणाम् ईश्वरं च दृष्टवान्. विश्वरूपदर्शनेन अर्जुनस्य मोहः नष्टः, सः ज्ञानं प्राप्तवान्. भगवन् मम सन्देहः नष्टः, अहं तव वचनं करिष्यामि इति उक्तवान्. युद्धं कर्तुं च सन्नद्धः अभवत्, सन्नद्धः इति सिद्धः अभवत्. श्रीकृष्णः अर्जुनाय किं किं दर्शितवान्? दर्शितवान्. सो दिस् क्वश्चन् शुड् हव् बीन् आफ्टर् दिस् खलु, अनन्तरम् अस्ति, सम्यक् भवति. अस्तु, अर्जुनः किमर्थं कौरवान् मारयितुं न इच्छति? सर्वे मम बान्धवाः, सर्वे मम बान्धवाः इति उक्त्वा न मारयितुं न इच्छामि इति. अर्जुनः कान् दृष्टवान्? पितृन्, पितामहान्,
आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्
सर्वान् दृष्टवान्.
सूरदस्य दृष्टवान्.
सम्यक्, अस्तु, कान् दृष्टवान्. अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान्?
युद्धार्थम् उपस्थितान् सर्वान् द्रष्टुम् इच्छामि इति
अहम् अत्र युद्धार्थम् उपस्थितान् सर्वान् अहं द्रष्टुम् इच्छामि इति
अर्जुन उक्तवान्.
सो दिस् इस् द कारणं किमर्थं तत्र तत्र गच्छतु इति उक्तवान् इति प्रश्नः अस्ति चेत्, युद्धार्थम् उपस्थितान् सर्वान् अहं द्रष्टुम् इच्छामि, अतः सेनयोर्मध्ये रथं स्थापय इति सः उक्तवान्. द लास्ट् क्वश्चन्, अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान्? किमर्थं, वै वै डिड् ही आस्क् हिम् टु गो? सो सः उक्तवान् तत्र गच्छतु, अत्र युद्धार्थम् उपस्थितान् सर्वान् अहं द्रष्टुम् इच्छामि इति. एतेन कारणेन एव तत्र गच्छतु इति अर्जुनः श्रीकृष्णम् उक्तवान् इति. अस्तु, समापयामः वा? किमर्थम् इत्युक्ते समापयामः, अग्रे भारतात् अग्रिमवर्गं चालयामः वयम्. अस्तु, धन्यवादः. शान्तिमन्त्रम् उक्त्वा समापयामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्. थेङ्क् यू आल् फर् कमिङ्ग्.